एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ मधेस प्रदेशस्य विपद संकट युक्त क्षेत्रे विद्यमानानां जनानां सुरक्षायाः कृते सर्वकारेण प्राथमिकतायां कार्यं विधीयमानं वर्तते इत्युक्तवान् अस्ति। गत सोमवासरे उपविष्टेन मन्त्रिपरिषदा उपवेशेन विहितान् निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये समायोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ आमदेश प्रदेशं संकटग्रस्त क्षेत्रत्वेन घोषणाया निर्णयेन सहैव तस्मिन् क्षेत्रे विद्यमाना पेयजलसेचन सम्बद्धा समस्या समाधातुं द्रुततया कार्यं विधीयमानम् अस्ति। अगदत् मन्त्रिपरिषदः उपवेशेन जलविप्लवेन विनष्टस्य बीपीराजमार्गान्तर्गतस्य सिन्धुली मार्गखण्डस्य पुनर्निर्माणाय जापान सर्वकारात् प्राप्यमाणम् अष्टकोट्यधिकाब्ज द्वय परिमितानां जापानदेशीय ऐन मुद्राणाम् अनुदान सहायतां स्वीकर्तुं रानी जमरा कुलरिया सेचना योजनायाः तृतीय चरणस्य कार्यस्य कृते विश्वकोषागार समूहस्य अन्तर्राष्ट्रिय विकास संस्थायाः प्राप्यमाणं द्विनवति कोट्यधिकाष्टादशाब्ज रूप्यकाणां सौविध्यपूर्ण ऋण सहायतां स्वीकर्तुं च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता मन्त्री गुरूङ असूचयत्। एवमेव उपवेशेन अस्यैव श्रावणमासस्य अष्टादश दिवसात् त्रयोविंशं दिवसं यावद् तुर्कमेनिस्तान देशे समायोक्ष्यमाणे भूपरिवेष्टित राष्ट्राणां तृतीये विश्वसम्मेलने सहभागितायै प्रधानमन्त्रिणः केपी शर्माओलिनः नेतृत्वे विधास्यमानम् औपचारिक भ्रमणं स्वीकृतमस्तीति च मन्त्री गुरूङ असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति देशस्य अण्डभाण्डागारत्वेन विद्यमाने मधेस क्षेत्रे सेचनस्य उचितं प्रबन्धं विधातुं सर्वकारः प्रतिबद्धोऽस्ति। नेकपा एमाले दलस्य साहित्य कला संस्कृति विभागेन पूर्वे द्युः आयोजिते सृष्टिमेलन क्षीरान्न भोजन कार्यक्रमे प्रधानमन्त्री ओली अस्मिन् वर्षे मधेस क्षेत्रे अनावृष्टेः कारणात् पर्याप्तं कृष्युत्पादनं न जातम्, एतदर्थं सर्वकारेण सेचनस्य पेयजलस्य च व्यवस्था विधीयते इति अगदत्। तदवसरे प्रधानमन्त्री ओली सुनकोशी मरिन पथान्तरणा योजना रानी जमरा कुलरिया सेचना योजना तमोर सेचना योजना प्रवृत्तिः आयोजनाः शीघ्रं सम्पादयितुं सम्बद्धाः निकायाः निर्दिष्टाः सन्तीति सूचितवान् आसीत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सहितैः सत्ता सहयात्रिणो नेकपा एमाले नेपाली कांग्रेस दलयोः शीर्षस्थैः नेतृभिः विमृष्टमस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते विमर्शने एतेषु समसामयिकेषु विषयेषु विमृष्टमस्तीति ज्ञापितं वर्तते। विमर्शने प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च ओली नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा उपसभापति पूर्ण बहादुर खड्का एमाले दलस्य उपाध्यक्ष अर्थमन्त्री च विष्णुप्रसाद पौडेलश्च सहभागिनः आसन्। प्रधानमन्त्री केपी शर्मा ओली निगदति साहसवद्भिः भविष्यं प्रति आशावद्भिश्च युवोद्यमीभिः समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षां पूरयितुं योगदानं प्रदीयते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य औद्योगिक व्यवसाय विकास प्रतिष्ठानेन आयोजिते प्रधानमन्त्रिणा सह नव्य व्यवसायोद्यमिनः इति कार्यक्रमे प्रधानमन्त्री ओली भविष्यस्य त्यागे सति न किमपि अवशिष्यते इत्यतः विकसित राष्ट्राणां सुन्दरं भविष्यं प्रति आशावादिनो भूत्वा वयं समर्थाः भविष्याम इति भावनया कार्ये प्रवर्तितुं बलं प्रादात्। सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्रिणा कमल बहादुर शाहविदेन प्रदेशसभायां विश्वासस्य मतं प्राप्तमस्ति। सर्वकाराय समर्थनं कृतवता नागरिकोन्मुक्तिदलेन समर्थनं प्रत्यावर्तितम् आसीत्। ततः मुख्यमन्त्रिणा गत बृहस्पतिवासरे विश्वासस्य मतं गृहीतं वर्तते। प्रदेशसभाया स्थाने उपवेशे मुख्यमन्त्रिणा साहविदेन प्रस्तुतस्य विश्वास मत ग्रहण सम्बद्ध प्रस्तावस्य पक्षे नेपाली कांग्रेस दलस्य अष्टादश, नेकपा एमाले दलस्य एकादश, नाउपा दलस्यैव एकस्य सांसदस्य मतञ्चेत्याहत्य त्रिंशद् मतानि अभिव्यक्तानि सन्ति। नाउपा दलस्य अन्य षड् सांसदाः सभायाम् अनुपस्थिताः आसन्। मुख्यमन्त्रिणा सायना द्वितीयवारं प्रदेशसभातः विश्वासस्य मतानि प्राप्तानि सन्ति। उपवेशे सभामुख भीमबहादुर भण्डारी विश्वासस्य मतस्य पक्षे त्रिंशत्, विपक्षे च पञ्चदश मतानि व्यक्तानि सन्तीति प्रदेशसभायाम् उदघोषयत्। राष्ट्रिय सभाया विकासार्थिक विषय सुशासन समित्या मधेस प्रदेशे दृष्टाया पेयजलाभावस्य समस्याया तत्कालमेव समाधानाय सर्वकारः निर्दिष्टोऽस्ति। समितेः ह्यस्तनोपवेशेन मधेस प्रदेशेन सहित महाराष्ट्रं दृष्टस्य पेयजलस्य समस्याया दीर्घकालिक समाधानाय अध्ययनं विधाय प्रतिवेदनं प्रस्तोतुं सांसदस्य उर्मिला आर्यालस्य संयोजकत्वे पञ्चसदस्यात्मिका समितिः संघटिता अस्ति। समित्या सर्वेषां कृते पेयजलस्य स्वच्छतायाश्च व्यवस्थापनं सुनिश्चित्य स्थिर विकासस्य लक्ष्यमधिगन्तुम् अध्ययनं विधास्यते इति समितेः सभापति कमलापन्तः असूचयत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डेय निगदति राष्ट्रिय गौरवयुताः आयोजनाः प्रभावकारितया अग्रे सारयितुं मन्त्रालयः प्रतिबद्धो वर्तते। राष्ट्रिय सभायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे मन्त्रालयान्तर्गतानां राष्ट्रिय गौरवस्य आयोजनानां क्रियान्वयनाय प्रगत्यै समस्यानां समाधानाय च सम्भूतानां प्रयत्नानां विषये विहिते विमर्शने मन्त्री पाण्डे निर्माण सम्पन्नाः आयोजनाः नियमितरूपेण सञ्चालयितुम् अपूर्णाः आयोजनाः समापयितुं च मन्त्रालयः प्रतिबद्धोऽस्तीति अगदत्। भूमिहीनानां समस्यां समाधातुं प्रभावकारी अधिनियमः निर्मातव्य इति विज्ञैः बलं प्रदत्तं वर्तते। कृषि सहकारी प्राकृतिक स्रोत समितौ ह्य विहिते विमर्शने भूमि वन विधि क्षेत्राणां विज्ञैः भूमिहीनेभ्यः भूमि प्रदानस्य विषयः सामाजिक न्यायस्य विषयोऽस्तीत्यतः शीघ्रम् अस्याः समस्यायाः समाधानत्वेन अग्रे वर्धनीयमिति बलं दत्तमस्ति। उपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी विधेयकस्य पारिति भवनानन्तरं वास्तविक भूम्यावासहीनेभ्यः अव्यवस्थितावासेभ्यः भूमिहीन दलितेभ्यश्च लाभो भविष्यतीत्यतः सर्वैः पक्षैः सह विमर्शनं कृत्वा विधेयकं समृद्धं विधातुम् ईप्सितमस्तीति उदैरयत्। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुडी संयुक्त राष्ट्र संघीय महिला महासन्धि समित्या नेपालाय प्रदत्तस्य परामर्शनस्य क्रियान्वयनं भविष्यतीति प्रतिबद्धतां व्यनक्ति। महिला विधि विकास मञ्चेन पूर्वे द्युः काष्ठमण्डपे आयोजिते कार्यक्रमे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री सुडे महासन्धौ विशेषतः महिलानां हिंसायाः शोषणस्य भेदभावस्य च अन्तस्य विषयाः उल्लिखिताः सन्तीति अवोचत। कार्यक्रमे महिला सामाजिक विषय समितेः सभापति किरण कुमार शाह महासन्धि समितेः परामर्शनानां क्रियान्वयनाय स्वस्य समित्या भूयो भूय विमृश्य निर्देशनं च प्रदत्तमस्तीति प्रावोचत्। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहाल थानकोड चितलाङ मार्गखण्डस्य स्तरोन्नतेः कार्याय गतिं प्रदातुं निर्दिशति। य थानकोड चितलाङ मार्गखण्डस्य निरीक्षणस्य पश्चात् मन्त्री दाहाल काष्ठमण्डप योजक लघुदूर्या मार्गोऽसौ आर्थिक विकासाय समृद्धये च सहयोगी शीर्ष्यतीति उदैरयत्। अनेन मार्गेण मकवानपुर जनपदस्य कृषि खाद्यान्नानां काष्ठमण्डपमानयन नयनयो कृते पर्यटकीय क्षेत्रस्य विकासाय च सहयोग प्रापयिष्यते इत्यतः अनेन मार्गेण आर्थिक विकासाय सहयोगो भविष्यतीति मन्त्री दाहाल विश्वासं व्यक्तवान् इति समाचारः।